ब्रह्मानन्दं परमसुखदां केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वम् अस्यादिलक्ष्यम् एकं नित्यं विमलमचलं सर्वदी साक्षीभूतं भावतीतं त्रिगुणरहितं सद्गुरुं तं नमामि।